तृतीयस्यामितो दिविशो महासीत् गङ्गायत्र्याहत् तस्य पर्णमक्षिद्यत तत्पर्णो भवत् तत्पर्णस्य पर्णत्वम् ब्रह्म वै पर्णः यत्पर्णशाखया वत्सानपाकरोति ब्रह्मणैवैनानपाकरोति गायत्रो वै पर्णः गायत्राः पशवः तस्मात्त्रीणि त्रीणि पर्णस्य पदाशानि त्रिपदा गायत्री यत्पर्णशाखया गाः प्रार्पयति स्वदेवैना देवतया प्रार्पयति यम् कामयेता पशुस्यादिति अपर्णान् तस्मै शुष्काः घ्रामाहरेत् अपशुरेव भवति यम् कामयेत पशुमान् स्यादिति बहुपर्णान् तस्मै बहुशाखामाहरेत् पशुमन्तमेवैनम् करोति यत्प्राचीमाहरेत् देवलोकमभिनयेत् यदुदीचीम् मनुष्यलोकम् प्राचीमुदीचीमाहरति उभयोर्लोकयोरभिजित्यै विषयत्वोर्येत्वेत्याह विषमेवोर्जम् यजमाने दधाति वायवस्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः अन्तरिक्षदेवत्याः खलु वै पशवः वायवयेवैनान् परिददाति प्रवायेनानेतदा करोति यदाः वायवस्थेत्युपायवस्थेत्याह यजमानायै पशूनुपह्वयते देवो वः सविता प्रार्पयत्युक्त्याह पशोकै श्रेष्ठतमाय कर्मण इत्याह यज्ञो हि श्रेष्ठतमम् कर्म तस्मादेव माह आप्यायध्वमग्निया देव भागमित्याह वर्षेभ्यश्च वाहेता पुरा मनुष्येभ्यश्चाप्यायन्त देवेभ्यैनाइन्द्रायाप्यायते ऊर्जस्वते पयस्वतेरित्याह ऊर्जगम् हि पयः सम्भरन्ति प्रजावतीरणमेवा यक्ष्मा इत्याह प्रजाद्यै मावस्तेन येषमाभिषगम् सगित्याह गुप्त्यै रुद्रस्य हेयपरिभावनक्त्याह रुद्रादेवेनास्त्रायते ध्रुवास्मिन् गोपतौ स्याद् बह्वेरित्याह ध्रुवा एवास्मिन् बह्वे करोति यजमानस्य पशोन्वाहेत्याह पशूनाम् गोपीताय तस्मात् सायम् पशव उपसमावर्तन्ते अनधः साधयति गर्भाणाम् धृत्या प्रपादाय तस्माद्गर्भाप्रजानामप्रपादुकाः उपरेव निदधाति उपरेव हि सुवर्गो लोकः सुवर्गस्य लोकस्य समष्ट्यै देवस्य त्वादविदः प्रसवयुक्तश्वपरुषादत्ते प्रसोत्यै अश्विना बाहुभ्यामित्याह अश्विनोभिदेवानामध्वर्यो आस्ताम् ओष्माहस्ताभ्यामित्याह यज्ञैः यो वा वोढधे पर्वशो वेद नैनास्वहिनस्ति प्रजापतिर्वा वोढधे पर्वशो वेद सेनाहिनस्ति अश्वपश्वा बलिरच्छैति राजापत्यो वा अश्वस्तयो नित्वाय वोढधीनामहिंसायै यज्ञस्य घोषदधीत्याह यजमान एव लयिम् दधाति प्रत्यष्टगुणक्ष प्रत्यष्टानादनित्याह रक्षसामुपहत्यै प्रेयमगाद्धिषणा बलिगलक्षेत्याह विद्यावेधिषणाः विद्यैवेन दच्छैते मनुना कृता स्वधया विदष्टेत्याह मानवैः परिजस्वधा कृता तावहन्ति कवयः पुरस्तादित्याह शुश्रुवागुंसो वै कवयः यज्ञः पुरस्ताद् मुखत एव यज्ञमारभते अथो यदेतदुक्त्वा यतः कुतश्चाहरति तत्प्राच्या एव दिशो भवति देवेभ्योऽष्टमिह बर्हिराधदैत्याः बर्हिटः समर्थ्यै कर्मणो न पराधाय देवानाम् परिशूतमसीत्याह यद्वा इदम् किञ्च तद्देवानाम् परिशूतम् अथो यथा वश्यते प्रतिप्रोच्याहेदम् करिष्यामीति एवमेव तदध्वर्य देवेभ्यः प्रतिप्रोच्य परिहृतादि आत्मनोऽहिंसायै यावदस्तम्बान् परिदिशेत् यत्तेजामच्छिग्दृश्यात् अरितद्दिग्गस्य रेचयेत् एकग्रस्तम्बम् परिदिशेत् सकम् सर्वम् दायात् यज्ञस्यानतिरेकाय वर्षवृद्धमसेत्याह वर्षवृद्धा वा वोषधयः देवपरिहरित्याह देवेभ्येवेणत्करोति मा त्वाम् मन्मातव्यमित्याहायुंसायै पर्वतेनाध्यासमित्याहध्येः आच्छेत्ता ते मारिषमित्याह नास्यात्मनोमीयते य एवम् वेद देवपरिशतवर्षम् विलोहेत्याह प्रजावेपरिः प्रजानाम् प्रजननाय सहस्रवर्षाविवयम् गृहेमेत्याह आशिषमे वेतामाशास्ते पृथिव्याः सम्प्रजः पाहेत्याह प्रतिष्ठित्ये अयुङ्गायुङ्गान्मुष्टेन्नोति विचनत्वाय प्रजाप्ये सुसम्भृता त्वा सम्भरामेत्याह ब्रह्मणेवेणत्सम्भरति अदित्येरास्नादेत्याह इयम् वा अतिथिः अस्या एवेनद्रास्नानाम् करोति इन्द्राण्ये सन्नः न विद्याः इन्द्राणि वा अग्रे देवता नागम् समनश्यत साध्नाद्ये सन्नश्यते प्रजा वै बलिः प्रजानामपरापाय तस्मात् स्नावसन्तता प्रजा जायन्ते पूषाते ग्रन्थिम् ग्रन्थात्वित्याह पुष्टिमेव यजमाने दधाति तते मास्थादित्याः हिगुंसायै पश्चात्प्राञ्चमुपगूहते पश्चाद्वै प्राचीनकुम्रेतोऽधीयते पश्चादेवास्मै प्राचीनकुम्रेतो दधाति इन्द्रस्य त्वा बाहुभ्यामुद्यक्षयित्याह इन्द्रियमेव यजमाने दधाति बृहस्पतेर्मूर्ध्ना हरामेत्याह ब्रह्मवे देवानाम् बृहस्पतिः ब्रह्मणे वैनद्धरति उर्वन्दरक्षमन्विहेत्याह गत्यै देवङ्गममसेत्याह देवानेवैनद्गमयति अनथः साधयति गर्भाणाम् धृत्या प्रपादाय तस्माद्गर्भाः प्रजानामप्रपादुकाः उपरेव निदधाति उपरेव सुवर्गो लोकः सुवर्गस्य लोकस्य समष्ट्ये पूर्वेऽद्यरध्मा बलिः करोति यज्ञमेवारभ्य गृहेत्वोपवसति प्रजापतिर्यज्ञमसृजत तस्योखे अस्त्रपुंसेताम् यज्ञो वै प्रजापतिः यत्सान्नायोगे भवतः यज्ञस्यैव दुःखे उपदधात्यप्रस्रपुंसाय शुन्धध्वम् देव्याय कर्मणे देवयज्ञाय इत्याह देवयज्ञाय एवैनानि शुन्धति मातरिष्मनो कर्मासीत्याह अन्तरिक्षम् वै मातरिष्मनो कर्मः तेषाम् लोकानाम् विधृत्ये द्यौरथपृथिव्यसीत्याह दिवश्चक्येला पृथिव्याश्च सम्भृता हि सुखा तस्मादेव माह विश्वधायासि परमेण धाम्नेत्याह वृष्टिर्वै विश्वधायाः वृष्टिमेवावरुन्धे भृगुमहस्तमात्पादित्याह धृत्यै वसूनाम् पवित्रमसेत्याह प्राणावै वसवः तेषाम् वा एतद्भागधेयम् यत्पवित्रम् तेभ्यगेवै न करोति शतधारकम् सहस्रधारमित्याह प्राणेष्वेवायुर्दधाति सर्वत्वाय त्रिपत्पराशाखायान्तर्भमयम् भवति त्रिपद्वये प्राणः त्रिपदमेव प्राणम् मध्यतो यजमाने दधाति सौम्यः पर्णस्य यो नित्वाय साक्षात् पवित्रम् दर्भाः प्राक्सायमधिदधाति तत्प्राणापानयो रूपम् तर्यक्प्रातः तद्दर्शस्य रूपम् दार्शग्निह्येतदः अन्नम् वै चन्द्रमाः अन्नम् प्राणाः उभयमेव वैत्यजामित्वाय तस्मादेकम् सर्वतः पवते हुतस्तोको हुतो द्रप्स इत्याह प्रतिष्ठित्ये अविषवस्कन्दाय न हि हृदग्निस्वाहाकृतग्निस्कन्दते दिविना को नामाग्निः तस्य विप्रुषो भागधेयम् अग्रये वृहतेनाकायेत्याह नागमेवाग्निम् भागधेयेन समर्थयते स्वाहाद्या वा पृथिवेभ्यामित्याह या वा पृथिव्योरेवेण प्रतिष्ठापयते पवित्रपत्यानयते अपाञ्चैवौषधीनाम् च रसपुंसकम् सृजते अथो ओषधे स्वेव पशून् प्रतिष्ठापयते अन्वारभ्यवाजम् यच्छति यज्ञस्य धृत्यै धारयन्नास्ते धारयन्त एव हि दुहन्ति कामसुक्षयित्याः तदीयस्यै त्रयमे लोकाः इमानेव लोका यजमानो दुहे अमोमिति नाम गृह्णाति भद्रमेवासान् कर्माविष्करोति सा विश्वायुस्ता विश्वव्यधा सा विश्वकर्मेत्याह इयम् वै विश्वायुः अन्तरिक्षम् विश्वव्यधाः असो विश्वकर्मा इमानेवेताभिर्लोका यथा पूर्वम् दुहे अथो यथा प्रधात्रे पुण्यमाशास्ते एवमेवेना एतदुपस्तौति तस्मात्प्रादादित्यन्नेयवन्दमाना उपस्तवन्तः पशून् दुहन्ति बभुभुतेन्द्राय देवेभ्यो हविर्दिवाचम् विसृजते यथा देवतमेव प्रसौति देव्यस्य च मार्षस्य च व्यावृत्ते त्रिधाः पृषत्याहिदेवाः अवाजयमोनन्वारभ्योत्तराः अपरिमितमेवावरुन्धे मृदारुपात्रेण दुह्यात् अग्निवग्वेदारुपात्रम् यद्दारुपात्रेण दुह्यात्